अध चतुष्षष्टितमः सर्गः। सुग्रीवेणैव मुक्तस्तु हृष्टो दधिमुखः कपिः राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्। सुग्रीवेणैव मुक्तस्तु हृष्टो दधिमुखः कपिः राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्। स प्रणम्य च सुग्रीवं राघवौ च महाबलौ वानरैः सहितैः सूरैः दिवमेवोत्पपातः स यथैवागतः पूर्वं तथैव त्वरितं गतः निपत्य गगनाद् भूमौ तद्वनं प्रविवेशः। स प्रविष्टो मधुवनं ददर्श हरियूधपान् विमदानुत्थितान् सर्वान् मेहमानान् मधुदकं सतान् उपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् उवाच वचनं श्लेक्ष्णम् इदं हृष्टवदङ्गदं सौम्यरोषो न कर्तव्यो यदेभिरभिवारितः अज्ञानाद् रक्षिभिः क्रोधात् भवन्तः प्रतिषेधिताः। युवराजस्त्वमीशिश्च वनस्यास्य महाबला मौर्ख्यात् पूर्वं कृतो दोषः तं भवान् क्षन्तुमर्हति आख्यातं हि मया गत्वा पितृव्यस्य तवानघ युहोपयां तं सर्वेषां एतेषां वनचारिणां सत्त्वदागमनं श्रुत्वा सहैभिर्हरियूधपैः प्रहृष्टो न तुरुष्टोऽसौ वनं श्रुत्वा प्रदर्शितं प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः शीघ्रं प्रेषयता प्रेषय सर्वांस्तान् इति होवाच पार्थिवः। श्रुत्वा दधिमुखस्येदं वचनं श्लेक्ष्णमङ्गदः अब्रवीत्तान् हरिश्रेष्ठो श्रेष्ठो वाक्यं वाक्यविशारदः सिंके श्रुतोऽयं वृत्तान्तो रामेण हरियूधपाः तत्क्षमं नेह न स्थातुं कृते कार्ये परन्तपाः। पीत्वा मधु यथा कामं विश्रान्ता वनचारिणः किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूधपाः तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहं नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया। ब्रुवतश्चाङ्गदस्येवं श्रुत्वा वचनमव्ययं प्रहृष्टमनसो वाक्यम् इदमूचुर्वनौकसः एवं वक्ष्यति को राजन् प्रभुः सन्वानरर्षभ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते तव चेदं सुसदृशं वाक्यं च वाक्यं नान्यस्य कस्यचित् सन्नतिर्हितमाख्याति भविष्यत्सुभयोग्यतां सर्वे वयमपि प्राप्ताः तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः त्वया ह्यनुक्तैर्हरिभिर्न त्वया ह्यनुक्तैर्हरिभिः नैव शक्यं पदात्परम् क्वचिद्गन्तुं हरिश्रेष्ठा ब्रूमसत्यमिदं तु ते एवं तु वदतां तेषामङ्गदः प्रत्यभाषत बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः उत्पतन्तमनुत्पेतुः अनुत्पेतु सर्वे ते हरियूधपाः कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इव अचलाः तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः निनदन्तो महानादं घना वातेरिता यथा अङ्गदेहि अननुप्राप्ते सुग्रीवो वानराधिपः उवाच शोकोपहतं रामं कमललोचनं समाश्वसि हि भद्रन्ते दृष्टा देवी न संशयः नागन्तुमिह शक्यन्ते नागन्तुम् इह शक्यं तैः अतीते समये हि नः न मत्सकाशमागच्छेत् कृत्यैः विनिपातिते युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः यद्यप्यकृतकृत्यानां ईदृशस्याद् उपक्रमः भवेत्सदीनवदनो भ्रान्तविप्लुतमानसः पितृपैतामहं चैतत्पूर्वकैरभिरक्षितं न मे मधुवनं हन्यात् अहृष्टप्लवगेश्वरः। कौसल्यासुप्रजा राम समाश्रिसि हि सुव्रता दृष्टा देवी न संदेहो न चान्येन हनुमता न ह्यन्यः कर्मणो हेतुः साधनेस्य हनुमतः हनुमति हि सिद्धिश्च मतिश्च मतिसत्तमा व्यवसायश्च वीर्यञ्च सूर्ये तेज इव ध्रुवं जाम्बवान्यत्र नेता स्यात् अंगदश्च बलेश्वरः हनुमाश्चाप्यधिष्ठाता नतस्य गतिरन्यथा मा भूश्चिन्ता समायुक्तः सम्प्रत्यमित विक्रमा ततः किल किला शब्दं सुश्रा सुश्राव आसन्नमम्बरे हनुमत्कर्म तृप्तानां नर्दतां काननौकसां किष्किन्धामुपयातानां सिद्धिं कथयतामिव ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः अङ्गदं पुरस्कृत्वा हनुमन्तं च वानरम् तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः निपेतुर्हरिराजस्य समीपे राघवस्य च हनुमांश्च महाबाहु प्रणम्य शिरसा ततः नियतामक्षतां देवीं राघवायन्यवेदयत् निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे लक्ष्मणः प्रीतिमान् प्रीतं बहुमानैतवेक्षत प्रीत्या च रममाणोधा राघवः परवीरः बहुमानेन महता हनुमन्तम् अवैक्षत प्रीत्या च रममाणोधा राघवः परवीरः बहुमानेन महता हनुमन्तम् अवैक्षत इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे चतुष्षष्टितमः सर्गः पदामभर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं धर्मात्मा सत्यसन्धश्च रामो दासरथिर्यदि पौरुषे च प्रतिद्वन्द्वः सरेणं जहि रावणीं श्रीरघुनन्दनब्रह्मणे नमः दत्वान् दधिमुख did namaskaram to all the three, King Rama, Lakshmana, took permission, reached back to the Madhuvanam and came to all the Vanaras and said, "Hi Vanaras, namaste, don't think otherwise. No, just I did something for good. I took the message to Sugriva, I informed everything to him." And surprisingly, Sugriva was not unhappy. He was not unhappy. He was really happy because you guys returned. And I said that what's happening here, it's okay, you know. Before that, just to protect the forest, I did something to you guys. But don't think otherwise, you know. But King was so happy with you guys. And then, but as I informed about your arrival, and Sugriva said he want to see you immediately. And take it easy. Just take it easy, he said. Otherwise, you know, he was hitting Angada and he was about to hit Hanuman and stuff like that, right? So, when Sugriva accepted these people, that means these people are already in the high files. So, he should be with... in good corner with these people. That's why he said, you know, with all humbleness, I said, don't think otherwise, just take it easy. And Sugriva is waiting for you guys, you know. He wanted to see you immediately. Then Angada said, "Oh, Sugriva already got the message. It's not better to be here now. So we should not waste even a fraction of second. And we should be there immediately. Come on, let's go. If we go on foot, it might take a lot of time. So, let's go jumping. Let's go through the sky." And all they immediately just went up to the skies and then flew towards Sugriva. And meanwhile, Sugriva was consoling Rama. When Rama got the information like this, and he could not control his sorrow. And then he started shedding tears. And then Sugriva took him to his side. And then, "Rama, be happy. You know, all they are coming." And For sure, it's Hanuman's effort, as guided by Jambavan and Angada, and I'm sure they're going to bring very good message. Otherwise, they never do this kind of activity at all. Rama, be happy now. Our search was successful. So, meanwhile, all the Vanaras reached there, and they start landing in groups, and probably they are in few hundreds, not just 5, 10, 15 like that. So the entire area was occupied by these people. Meanwhile, the information also went there, and rest of the Vanaras also were assembling there. And when Hanuman and others also came there, and Sugriva had a soft corner, a good vision towards Hanuman. First his vision fell on Hanuman. And of course he saw rest of the Vanaras also.